निशमय्यतवाथयानवार्तां भृशमार्ताः पशुपालबालिकास्ताः किमिदं किमिदं कथन्वितीमाः समवेताः परिदेवितान्यकुर्वन् करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः पतनः किमु दैवमेवमासीत् इति तास्त्वद्गतमानसा विलेपुः चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् अचिरादुपयामि सन्निधिं वः भविता साधुमयैव सङ्गमश्रीः अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसितावधूरकार्षीः सविषादभरं स याच्ञमुच्चैः अतिदूरं वनिताभिरीक्ष्यमाणः मृदु तद्दिशि पातयन्नपाङ्गान् सबलो क्रूररथेन निर्गतोऽभूत् मनसा बहुलेन वल्लभानां मनसा चानुगतोऽथ वल्लभानां वनमार्तमृगं विषण्णवृक्षं समतीतो यमुना तटीमयासीः नियमाय निमज्ज वारिणि त्वाम् अभिवीक्ष्याथ रथेऽपि गान्धिनेयः विवशो जनिकिं विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् पुनरेष निमज्ज पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके सतदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन् प्रकारभेदैः अविलोक्य पुनश्च हर्षसिन्धोः अनुवृत्त्या पुलकावृतो ययौ त्वाम् किमु शीतलिमा महाञ्जलेय पुलतो साविति चोदितेन तेन अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् सदा सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्दा गोविन्दा शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्।